नमस्सर्वेभ्यः। छन्दोवर्गस्य अयम् अष्टमः पाठः। अस्मिन् पाठे वयं रथोद्धता इति वृत्तस्य लक्षणम् उदाहरणानि च पश्यामः। रथोद्धतायाः लक्षणं भवति रान्नराविह रथोद्धता लघवो, रान्नराविह रथोद्धता लघवो इति रथोद्धतायाः लक्षणम्। किं भवति रथोद्धतायां? रा इति गुरुः, न लघुः, रा गुरुः, वि ह र त्रयमपि लघुः, थो गुरुः, ध लघुः, ता गुरुः, ल लघुः, गौ गुरुः। अत्र गणविभागं कुर्मः। सो त्रीणि 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 नव अक्षराणि, दश एकादश, एवञ्च रथोद्धतायामपि प्रतिपादम् एकादश अक्षराणि भवन्ति। कः गणः? मध्य लघुः, आदिमध्यावसानेषु यरतर, अतः रगणः। सर्वलघुः, मा नौ तु गुरुलाघवम्, सर्वलघुः नगणः। पुनः मध्यलघुः, यथा आदौ तथा रगणः, लघुः गुरुः। सो रथोद्धता किं भवति? रान्नराविह, रात् नाम आदौ रगणात्, न रौ। सो आदौ रगणः, तदनन्तरं न रौ, नगणः रगणः। सो र न र इति गणाः लघौ, लघुः गुरुः। सो यस्मिन् वृत्ते र न र गणाः लघुः गुरुश्च भवति, तद्वृत्तं रथोद्धता इति कथ्यते। अस्याः गतिः, अस्य छन्दसः गतिः रथस्य गतिः इव, यथा रथः उद्धततया गच्छति, कदाचित् अप् अण्ड् डौन्, उपरि अधः, एवम् उच्चावचं गच्छति, एवं गतिः भवति इत्यतः अस्याः रथोद्धता इति नामधेयं स्यात्। अत्र एकमपि वक्तुमिच्छामि, यदा वृत्तानां लक्षणम् अधीयते, प्रतिवृत्तं कश्चन काचन गतिः भवति, रागः अथवा ट्यून् इति कथ्यते। सो सामान्यतः तस्य अभ्यासं कुर्मः चेत् लक्षणं विनापि यदा तत्र उच्चारणवेलायां सा गतिः अनुभूयते, तया गत्या एव छन्दसः अभिज्ञानं शक्यते अभ्यासवशात्, आदौ एव इति न, किन्तु सर्वदा तेनैव क्रमेण श्लोकानां पठनं कुर्मः चेत् तत् हृत्स्थं भवति। तदा यत्र कुत्रापि मध्ये भङ्गः अस्ति चेत् ओ अत्र छन्दोभङ्गः अस्ति इति ज्ञायते। बहुभिः तथा क्रियते, एकस्य श्लोकस्य पादं पठामः, ओ कश्चन दोषः अस्ति इति भासते, किमर्थं तत्र सर्वत्र वयं लघुगुरु कृत्वा न पश्यामः, तथापि उच्चारणवेलायामेव सा गतिः यत्र भिद्यते तत्र छन्दोभङ्गः अस्ति इति ज्ञायते, सः अभ्यासः करणीयः तेनैव क्रमेण उच्चारणस्य। रथोद्धतायाः उदाहरणं पश्यामः। आञ्जनेयस्य प्रसिद्धः श्लोकः अस्ति, आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम्, पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम्। पश्यन्तु अनेन रागेणैव रथोद्धतायाः गतिः ज्ञायते। अत्र कथं प्रस्तारः? आ गुरुः, ज लघुः, ने गुरुः, य माति पाटला न नम्, आञ्जनेयमति पाटलाननम्। सो आञ्जनेयमति पाटला, मध्य लघुः रगणः सर्वलघुः नगणः मध्य लघुः रगणः लघुः गुरुः रान्नरा विहरथोद्धता लघौ इति वृत्तम् वृत्तस्य लक्षणम् अत्र समन्वेति अन्यदेकम् उदाहरणम् मुकुन्दमाला स्तोत्रे इदम् अयम् श्लोकः अस्ति चिन्तयामि हरिमेव सन्ततम् मन्दमन्दहसिताननाम्बुजम् नन्दगोपतनयम् परात्परम् नारदादिमुनिवृन्दवन्दितम् कथनेनैव स्पष्टम् अस्ति वृत्तस्य लक्षणम् तथापि प्रस्तारम् लिखामः चिन्तयामि हरिमेव सन्ततम् सो चिन्तयामि हरिमेव सन्ततम् मध्यलघुः र न र लघुः गुरुः एवम् रथोद्धता वृत्तस्य लक्षणम् इदानीं ज्ञातवन्तः प्रतिपादम् एकादश अक्षराणि भवन्ति र न र गणाः लघुः गुरुश्च भवति अन्ते रान्नराविहरथोद्धता लघौ इति वृत्तस्य लक्षणं भवति अभ्यासपत्रे दत्तासु पङ्क्तिषु प्रस्तारं विलिख्य रथोद्धतायाः अभ्यासं कुर्वन्तु